राम गीता जी का पाठ दूसरा अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुतं हंसजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वम् यज्ञवादाश्च भाषसे गतासो न गतासोश्च नानुशोचन्ति पण्डिताः न त्वेवाहं जातु नाशम् न चौने मे जनाधिका न चैव न भविष्याम सर्वे वयमत परम् देहिनोऽस्म्यन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ते धीरस्तत्र न मोह्यति मात्रा स्पर्शास्तु कौन्तेयो शीतोष्णसुखदुःखदा आगमापायिनो नित्यास्तांस्तिक्षस्व भारत नाम्नाभ्यतयन्त्येते पुरुषं पुरुषर्षव समदुःखसुखं धीरं सोमृतत्वाय कल्पते मा सतो विद्यते भावो मा भावो विद्यते तत उभयोरभिदृष्टोऽन्त स्तनयोस्तत्त्वदर्शि अविनाशितु तद्विद्धि येन सर्वमिदं ततम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति आन्तवान्त इमेभिहा नित्यस्योक्ता शरीरिणा अनाशिनो प्रमेयस्य तस्माद्युद्ध्य स्वभारत येनं वेत्ति हन्तारं यस्तैनं मन्यते हतम् उभौ तौ न विजानीतो नायं नान्ति न हन्यते न जायते म्रियते वासुदासिन् नायं भूत्वा भवितावान् अधोनित्य शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे न जायते म्रियते वासुदासिन् नायं भूत्वा भवितावान् अधोनित्य शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वसुदेव सुतं देवं हंसजानुरमर्दनम् देवकी परमानन्दम्। जगद्गुरु कृष्ण वन्दे जगद्गुरु
हरि शरणम् 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 हरि शरणम्।